त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतो नलधूमगर्भः इत्थं शशापाद्रिसुताहुताशं रुष्टारतानन्दसुखस्य भंगात्
त्वमिति रतानन्दः सुरतानन्दः तत्र यत्सुखं तस्य भंगात् अन्तरायात् हेतोः रुष्टा अद्रिसुता पार्वती हे अनला त्वं सर्वं मेध्यं अमेध्यं वा भक्षति तथोक्तः तथा भीमं भयानकं कर्म यस्य तथा कुष्ठेन अभिभूतः पराभूतः तथा धूमः गर्भे मध्ये यस्य तथोक्तश्च भव इत्थं हुताशम् अग्निं शशाप शपतिस्मेत्यर्थः अत्र ज्ञीप्स्यमानत्वाभावात् श्लाघहुनुंस्था इति न सम्प्रदानत्वम्
दक्षस्य शापेन शशीक्षैव प्लुष्टो हि मेनेव सरोजकोशः वहन् विरूपं वपुरुग्ररेतः च येन वह्निः किल निर्जगाम
दक्षस्येति वह्निः अग्निः दक्षस्य शापेन हेतुना क्षयी क्षयरोगवान् शशी चन्द्र इव तथा हिमेन शीतेन प्लुष्टः दग्धः प्लुषदाहे कर्मणि निष्ठा सरोजकोश इव वपुः स्वशरीरम् उग्रस्य शिवस्य उग्रः कपर्दी श्रीकण्ठः इत्यमरः रेतश्चयेन वीर्यसङ्घातेन शुक्रम् तेजो रेतसी च इत्यमरः हेतुभूतेन विरूपम् भ्रष्टशोभम् एतादृशम् वहन् निर्जगाम सम्भोगवेश्मतः निःसृतवान् किलेति प्रसिद्धे
स पावकालोकरुषा विलक्षाम् स्मरत्रपास्मेरविनम्रवक्राम् विनोदयामास गिरीन्द्रपुत्रीम् शृङ्गारगर्भैर्मधुरैर्वचोभिः
स इति पावकस्य वह्नेः आलोकेन या रुट् क्रोधः तया हेतुना विलक्षाम् विरूपो विकृतिम् आपन्नः लक्षः लक्षणम् चिह्नम् शरीरशोभा यस्याः ताम् तथा स्मरत्रपाभ्याम् कामलज्जाभ्याम् स्मेरम् सस्मितम् विनम्रम् नतम् च वक्त्रम् यस्याः तथोक्ताम् गिरीन्द्रपुत्रीम् पार्वतीम् सः हरः शृङ्गारगर्भैः अत एव मधुरैः वचोभिः विनोदयामास प्रसादितवानित्यर्थः
हरो विकीर्णम् घनघर्मतोयैः नेत्राञ्जनाङ्कम् हृदयप्रियायाः द्वितीयकौपीनचलाञ्चलेन अहरन्मुखेन्दोरकलङ्किनोऽस्याः
हर इति हरः हृदयस्य प्रियायाः अस्याः पार्वत्याः अकलङ्किनः मुखेन्दोः सम्बन्धिनम् तथा घनानि यानि घर्मतोयानि प्रस्वेदजलानि तैः विकीर्णम् व्याप्तम् नेत्रयोः अञ्जनमेव अङ्कः कलङ्कः तम् द्वितीयम् यत् कौपीनम् योगिनः स्कन्धलम्बि वस्त्रम् कौपीनम् स्यादधो वस्त्रम् योगिनः स्कन्धलम्बि च इति मेदिनि तस्य चलम् यदञ्चलम् प्रान्तः तेन अहरत् हृतवान् अकलङ्कस्य कलङ्कानौचित्यादिति भावः
मन्देन खिन्नाङ्गुलिनाकरेण कम्प्रेण तस्यावदनारविन्दात् परामृशन् घर्मजलम् जहार हरः सहेलम् व्यजनानिलेन
मन्देनेति हरः शिवः मन्देन लघुप्रचारेण तथा खिन्नाः अलसप्रयोगेण उदासीनाः अङ्गुलयः यस्य तेन तथा कम्प्रेण कम्पशीलेन नमिकम्पिस्म्यजसकम् इति रः करेण कृत्वा तस्याः पार्वत्याः वदनारविन्दात् घर्मस्य घर्मरूपं वा जलम् परामृशन् विश्लेषयन् सहेलम् सक्रीडम् यथा तथा व्यजनस्य अनिलेन कृत्वा जहार
रतिश्लथम् तत्कबरीकलापम् अंसावसक्तम् विगलत्प्रसूनम् स पारिजातोद्भवपुष्पमय्या स्रजा बबन्धामृतमूर्तिमौलिः
रतिश्लथमिति अमृतमूर्तिः चन्द्रः मौलौ यस्य सः हरः देवः रतौ श्लथम् शिथिलबन्धनम् अत एव अंसयोः स्कन्धयोः अवसक्तम् लग्नम् अत एव विगलन्ति अधःपातुकानि प्रसूनानि यस्य तम् तस्याः कबरीकलापम् कचभारम् पारिजातोद्भवपुष्पमय्या पारिजातोद्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्रजा मालया बबन्ध तत्प्रकृतवचने इति प्राचुर्ये मयट् ततः टिड्ढाणय इति ङीप्
कपोलपाल्याम् मृगनाभिचित्र पत्रावलीमिन्दुमुखस्सुमुख्याः स्मरस्य सिद्धस्य जगद्विमोह मन्त्राक्षरश्रेणिमिवोल्लिलेख
कपोलपाल्यामिति इन्दुमुखः हरः सुमुख्याः पार्वत्याः सम्बन्धिन्याम् कपोलपाल्याम् मृगनाभ्याः कस्तूर्याः या चित्रा पत्रावली पत्ररचना ताम् सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैः तेषाम् मन्त्राणाम् यानि अक्षराणि वर्णाः तेषाम् श्रेणिम् पङ्क्तिम् इव उल्लिलेख लिखितवान् अत्र पत्ररचनारूपे वस्तुनि अक्षरश्रेणिरूपणात् वस्तूत्प्रेक्षालङ्कारः
रथस्य कर्णावभितन्मुखस्य ताटङ्कचक्रद्वितयम् न्यधात् सः जगज्जिगीषुर्विषमेषुरेषः ध्रुवम् यमारोहति पुष्पचापः
रथस्येति स हरः कर्णावभि कर्णसम्मुखे तन्मुखस्य पार्वतीमुखरूपस्य रथस्य सम्बन्धि ताटङ्करूपम् चक्रद्वितयम् चक्रद्वयम् न्यधात् यतः विषमेषुः एष पुष्पचापः कामः जगज्जिगीषुः त्रिभुवन विजयेच्छुः सन् यम् आरोहति ध्रुवम् निश्चितम् मुखरूपिणम् रथम् आरुह्य जगन्ति विजेतुम् इच्छति कामः इति भावः
तस्याः सकण्ठे पिहितस्तनाग्राम् न्यधत्तमुक्ता फलहारवल्लीम् या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम्
तस्या इति स हरः तस्याः कण्ठे पिहिते स्वप्रसारेण आवृते स्तनाग्रे चूचुके यया तथोक्ताम् मुक्ताफलहार एव वल्ली ताम् न्यधत्त निदधे या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गायाः ओघयोः प्रवाहयोः युगस्य लक्ष्मीम् शोभाम् प्राप तद्वत् शुशुभे इत्यर्थः अभूतोपमा
नखव्रणश्रेणिवरे बबन्ध नितम्बबिम्बेरशनाकलापम् चलस्वचेतो मृगबन्धनाय मनोभुवः पाशमिव स्मरारिः
नखेति स्मरारिः हरः नखव्रणश्रेणिभिः आत्मप्रयुक्ताभिः वरे मनोहरे तस्याः नितम्बबिम्बे रशनाकलापम् चलम् स्वम् चेतः एव मृगः तस्य बन्धनाय मनोभुवः सम्बन्धिनम् पाशमिव बबन्ध मनोभूः अस्य आत्मनः चेतोमृगस्य रशनाकलापरूपजालेन बन्धनम् करिष्यत्यतः हरः स्वयमेव तत्र तम् निदधौ इत्यर्थः न हि कामलुब्धः आत्मनीनम् गणयतीति भावः
भाले क्षणाग्नौ स्वयमञ्जनम् सः भङ्क्त्वा दृशो साधु निवेश्य तस्याः नवोत्पलाक्ष्याः पुलकोपगूढे कण्ठे विनीलेऽङ्गुलिमुज्जघर्ष
भाले क्षणेति सः हरः भाले यदीक्षणम् नेत्रम् तदेव अग्निः दीपकरूप इत्यर्थः तत्र अञ्जनम् स्वयम् भङ्क्त्वा पातयित्वा अथ च नवोत्पलाक्ष्याः तस्याः पार्वत्याः दृशोः साधु निवेश्य सम्यक् अञ्जयित्वा अथ च पुलकैः रोमाञ्चैः उपगूढे व्याप्ते विनीले श्यामले कण्ठे स्वीय इति शेषः अङ्गुलिम् उज्जघर्ष घृष्टवान् यथा अन्योऽपि दीपकोपरि अङ्गुल्यैव कज्जलम् पातयित्वा स्वस्त्रीनेत्रयोः निवेश्य कुत्रचित् अङ्गुलिम् उद्घर्षति तद्वत् अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः स्वभावोक्तिरलङ्कारः
अलक्तकम् पादसरोरुहाग्रे सरोरुहाक्ष्याः किल सन्निवेश्य स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः
अलक्तकमिति ఇందుచూడః హరః సరోరుహాక్ష్యాః పార్వత్యాః పాదసరోరుహాగ్రే అలక్తకం సన్నివేశ్య అనులిప్య కరేణేతి శేషః స్వస్య మౌలౌ యద్ గంగాసలిలం తేన కృత్వా హస్తస్య అరుణత్వం అక్షాలయత్ మమార్జ.
భస్మానులిప్తే వపుషి స్వకీయే సహేలమాదర్శతలం విమృజ్య నేపథ్యలక్ష్మ్యాః పరిభావనార్థం అదర్శయజ్జీవితవల్లభాం సహ.
భస్మేతి సహరః ఆదర్శతలం భస్మనా అనులిప్తే స్వకీయే వపుషి విమృజ్య శుద్ధం కృత్వా నేపథ్యానాం ఆకల్పవేషాణాం లక్ష్మ్యాః శోభాయాః పరిభావనార్థం అవలోకనార్థం సహేలం యథా తథా జీవితవల్లభాం ప్రియాం అదర్శయత్.
ప్రియేణ దత్తే మణిదర్పణే సా సంభోగ చిహ్నం స్వవపుర్విభావ్య త్రపావతీ తత్ర ఘనానురాగం రోమాంచ దంభేన బహిర్బభార.
ప్రియేణేతి ప్రియేణ హరేణ దత్తే మణీనాం దర్పణే ఆదర్శే సంభోగస్య చిహ్నాని నఖక్షతాదీని యత్ర తథోక్తం స్వం వపుః విభావ్య అవలోక్య భావనాత్ర విలోకన పరిణతా జ్ఞేయా త్రపావతీ సలజ్జా. ఏతాని చిహ్నాని విలోక్య అన్యః కిం వదిష్యతీతి విచారజనితయా లజ్జయా అంధా ఇత్యర్థః. సా పార్వతీ తత్ర హరే ఘనం అనురాగం ప్రేమ రోమాంచానాం దంభేన కైతవేన బహిః బహిస్థితత్వ వైశిష్ట్యపూర్వకం బభార ధృతవతీ. అంతః అస్యాః యః అనురాగః అభూత్ స ఏవ బహిః రోమాంచత్వేన పరిణత ఇతి భావః.
నేపథ్యలక్ష్మీం దయితోపకృప్తాం సస్మేరమాదర్శతలే విలోక్య అమంస్తసౌభాగ్యవతీషు ధుర్యం ఆత్మానముద్భూత విలక్షభావ.
నేపథ్యేతి సా పార్వతీ ఆదర్శతలే దయితేన హరేణ ఉపక్లృప్తాం రచితాం నేపథ్యలక్ష్మీం ఆభూషణమండనం సస్మేరం సస్మితం. అత్ర స్మితస్య అనురాగవ్యంజకత్వం యథా తథా విలోక్య ఉద్ధూతః త్యక్తః విలక్షభావః పూర్వసంజాత వైలక్ష్యం యయా ప్రసన్నా ఇత్యర్థః. తథోక్తా సతీ ఆత్మానం సౌభాగ్యవతీషు సతీషు మధ్యే ధురియం అగ్రగణ్యం అమంస్త మేనే. ప్రియకృత నేపథ్యలక్ష్మ్యాః అన్యదుర్లభత్వాదితి భావః.